अथ वृन्दादेव्यष्टकम् गाङ्गेयचाम्पेयतडे द्विनिन्दि रोचे प्रवाहस्न पितात्मवृन्दे बन्धूकबन्धुद्युतिदेव्यवासो वृन्दे नमस्ते चरणारविन्दम् बिम्बाधरोदित्वरमन्दहास्य नासाग्रमुक्ताद्युतिदीतितास्ये विचित्ररत्नाभरणश्रियाढ्ये वृन्दे नमस्ते चरणारविन्दम् समस्तवैकुण्ठशिरोमणौ श्रीकृष्णस्य वृन्दा वनधन्यधामिन् दत्ताधिकारी वृषभानुपुत्र्या वृन्दे नमस्ते चरणारविन्दम् त्वदाज्ञया पल्लवपुष्पभृङ्ग मृगादिभिर्माधवकेलिकुञ्जाः मध्वादिभिर्भान्ति विभूष्यमाणा वृन्दे नमस्ते चरणारविन्दम् त्वदीयदौत्येन निकुञ्जयूनो अत्युत्कयोःकेलिविलाससिद्धिः त्वत्सौभगङ्केन निरुच्यतां तत् वृन्दे नमस्ते चरणारविन्दम् रासाभिलाषो वसतेश्च वृन्दा वने त्वदीशाङ्घ्रिसरोजसेवा लभ्या च पुंसां कृपया तवैव वृन्दे नमस्ते चरणारविन्दम् त्वं कीर्त्यशेषा त्वततन्त्रविद्भिर्लीलाभिधाना किल कृष्णशक्तिः तवैव मूर्तिस्तुलसीनृलोके वृन्दे नमस्ते चरणारविन्दम् भक्त्या विहीनापराधलेशैः क्षिप्ताश्च कामादितरङ्गमध्ये कृपामयि त्वां शरणं प्रपन्ना वृन्दे नमस्ते चरणारविन्दम् वृन्दाष्टकैयश् शृणुयात् पठे च वृन्दावनाधीशपदाब्जभृङ्गः सप्राप्य वृन्दावननित्यवासन् तत्प्रेमसेवाल्लभते कृतार्थः वृन्दे नमस्ते चरणारविन्दम् वृन्दे नमस्ते चरणारविन्दम् वृन्दे नमस्ते चरणारविन्दम् वृन्दे नमस्ते चरणारविन्दम् इति श्रीविश्वनाथ चक्रवर्ती ठकुरकृतौ वृन्दादेव्यष्टकं सम्